नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य पञ्चदशः पाठः। अस्मिन् पाठे वयं पञ्चचामरम् इत्यस्य वृत्तस्य लक्षणं पश्यामः, कथम् उदाहरणेषु तस्य लक्षणस्य समन्वयः इत्यपि पश्यामः। पञ्चचामरस्य लक्षणं भवति जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्। जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्। अत्र प्रस्तारं पश्यामः। ज लघुः, रौ गुरुः, पुनः ज रौ, ज गा, विदं, व द ह्रस्वः किन्तु अग्रे संयोगः अस्ति अतः गुरुः, ति प अग्रे संयोगः अस्ति अतः गुरुः, च चा म रम्। वस्तुतः गणापेक्षया अत्र प्रस्तारं पश्यन्तु, लघु गुरु लघु गुरु लघु गुरु लघु गुरु सर्वत्र तथैव, तद्यत्र अस्ति तद्वृत्तं पञ्चचामरम् इत्युच्यते। अस्य प्रतिपादं षोडश अक्षराणि भवन्ति, षोडश अक्षराणि भवन्ति। लघु गुरु 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 इति प्रस्तारः अत्यन्तं सरलं। गणाः तर्हि के भवन्ति इति पश्यामः। पञ्चगणाः भवन्ति, अन्ते एकः वर्णः अवशिष्यते। आदौ मध्यगुरुः भजसा, मध्यगुरुः ज, मध्यलघुः यरत, सो तत्र मध्ये रगणः, पुनः मध्यगुरुः जगणः, पुनः मध्यलघुः रगणः, पुनः जगणः। सो ज र ज र ज इति पञ्चगणाः, अग्रे गुरुः, अत एव जरौ 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 जरौ, जगौ अन्ते जगणः एकः गुरुः, जगौ इदं वदन्ति पञ्चचामरम्। सो एतादृशं वृत्तं पञ्चचामरम् इति कथयन्ति। ज र ज र ज गणाः, अन्ते गुरुः इति पञ्चचामरस्य प्रस्तारः। अत्यन्तं प्रसिद्धम् अस्ति पञ्चचामरवृत्ते महागणेशपञ्चरत्नम् इति स्तोत्रम्। मुदाकरात्तमोदकं सदा विमुक्तिसाधकं, कलाधरावतं सकं विलासि लोकरक्षकम्, अनायकैकनायकं विनाशिते भदैत्यकम्, नताशुभाशुनाशकं नमामितं विनायकम् इति पञ्चचामरस्य एकः श्लोकः स्पष्टमेव अस्ति। मुदा क रा त मो द कं स दा वि मु अग्रे संयोगः अतः गुरुः, ति सा ध कम् लघु गुरु पर्यायेण अस्ति, अतः गणविभागः तु स एव भवति। मध्यगुरुः जगणः ज ज ज, मध्यलघुः रगणः ज र ज र ज, अन्ते गुरुः। एवम् इदं पञ्चचामरवृत्ते अस्ति। अन्यदपि प्रसिद्धं स्तोत्रमस्ति शिवताण्डवस्तोत्रम् इति, तत्रापि वयं पञ्चचामरवृत्तं द्रष्टुं शक्नुमः। धराधरेन्द्रनन्दिनी विलासबन्धुबन्धुरस्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे, कृपाकटाक्षधोरणी निरुद्धदुर्धरापदि क्वचिच्चिदम्बरे मनो विनोदमेतु वस्तुनि। ರಾವಣೇನ ಶಿವಂ ಉದ್ದಿಶ್ಯ ವಿರಚಿತಂ ಇದಂ ಸ್ತೋತ್ರಂ ಇತಿ ಕಥಯಂತಿ. ಧ ರಾ ಧ ರೇಂದ್ರ ನಂದಿನೀ ವಿಲಾಸ ಬಂಧು ಬಂಧು ರ ಅಗ್ರೇಸ್ಫು ಇತಿ ಸಂಯೋಗ ಅಸ್ತಿ, ಪಾದಸ್ಯ ಅಂತೆ ಅಪಿ ಅಸ್ತಿ. ಅತಃ ರೇಫಃ ಗುರುಃ. ಗಣವಿಭಾಗಃ ಕರ್ತವ್ಯಃ ನಾಸ್ತಿ, ಸ್ಪಷ್ಟಮೇವ ಅಸ್ತಿ. ಪಂಚಚಾಮರವೃತ್ತೇ ನಿಬದ್ಧಃ ಅಯಂ ಶ್ಲೋಕಃ. ಏವಂಚ ಪಂಚಚಾಮರವೃತ್ತೇ ಪ್ರತಿಪಾದಂ ಷೋಡಶ ಅಕ್ಷರಾಣಿ ಭವಂತಿ. ಜ ರ ಜ ರ ಜ ಇತಿ ಪಂಚಗಣಾಃ. ಅಗ್ರೆ ಅಂತೆ ಏಕಃ ಗುರುಃ ಚ ಭವತಿ. ಜರೌ ಜರೌ ಜಗಾವಿದಂ ವದಂತಿ ಪಂಚಚಾಮರಂ ಇತಿ ಪಂಚಚಾಮರಸ್ಯ ಲಕ್ಷಣಂ. ಅಭ್ಯಾಸಪತ್ರೆ ದತ್ತೇಷು ವಾಕ್ಯೇಷು ಕುತ್ರ ಕುತ್ರ ಪಂಚಚಾಮರ ವೃತ್ತಂ ಅಸ್ತಿ ಇತಿ ಪ್ರಸ್ತಾರಂ ವಿಲಿಖ್ಯ ಅವಗಚ್ಚಂತು.